ಓಂ ನಮಸ್ಸರ್ವೇಭ್ಯಃ. ಗುಣಾತೀತೋಪಿ ಸಹ ತ್ರಿಗುಣಸಚಿವಸ್ತ್ರಕ್ಷಣಮಯ ತ್ರಿಮೂರ್ತಿರಿಯ ಸರ್ಗಸ್ಥಿತಿವಿಲಯಕರ್ಮಾಣಿ ತನುತೆ ಕೃಪಾಪಾರಾವಾರ ಪರಮಗತಿ ಏಕಸ್ತ್ರಿಜಗತಾಂ ನಮಸ್ತಸ್ಮೈ ಕಸ್ಮೈ ಚಿದಮಿತಮಹಿಮ್ನೆ ಪುರವಿದೆ. ನಿಧಾಯ ಹೃದಿ ವಿಶ್ವೇಶಂ ವಿಧಾಯ ಗುರುವಂದನಂ ಬಾಲಾನಾಂ ಸುಖಬೋಧಾಯ ಕ್ರಿಯತೆ ತರ್ಕಸಂಗ್ರಹಃ. ಅಸ್ಮಭಿಃ ಪ್ರಮಾದವಶಾತ್ ದ್ವಿತೀಯ ವರ್ಗಸ್ಯ ಧ್ವನಿ ಮುದ್ರಣಂ ನ ಕೃತಂ ಇತಿ ಪುನಃ ತತ್ರ ಕಿಂ ಕಿಂ ತತ್ರ ಅಸ್ಮಭಿಃ ಪರಿಶೀಲಿತಂ ತೇಷು ನಾಮ ತತ್ರ ಯೇ ಮುಖ್ಯಾಂಶಾಃ ಪುನಃ ತಾನ್ ಅತ್ರ ಕಿಂಚಿದಿವ ತೇಷಾಂ ವ್ಯಾಖ್ಯಾನಂ ಕ್ರಿಯತೆ. ಅಸ್ಮಭಿಃ ಪ್ರಥಮೇ ವರ್ಗೆ ತರ್ಕಸಂಗ್ರಹ ಕೀದೃಶಃ ಗ್ರಂಥಃ ಇತ್ಯಸ್ಮಿನ್ ವಿಷಯೆ ಕಿಂಚಿತ್ ದೃಷ್ಟಂ. ತರ್ಕಸಂಗ್ರಹಃ ಪ್ರಕರಣಗ್ರಂಥಃ, ಪ್ರಕರಣಗ್ರಂಥಸ್ಯ ಲಕ್ಷಣಂ ಕೀದೃಶಂ ಭವತಿ, ಸ್ವರೂಪಂ ಕೀದೃಶಂ ಭವತಿ ಇತ್ಯುಕ್ತೆ ತತ್ರ ಶಾಸ್ತ್ರೈಕದೇಶ ಸಂಬದ್ಧಃ ಭವತಿ ನಾಮ ಶಾಸ್ತ್ರಸ್ಯ ಸರ್ವಾಂಗಿನಃ ತತ್ರ ಸರ್ವತೋಮುಖಿ ವ್ಯಾಖ್ಯಾ ತತ್ರ ನ ಭವತಿ. ತತ್ರ ಕೇವಲಂ ಶಾಸ್ತ್ರ ಸಂಬದ್ಧಂ ತತ್ರ ಅಂಶಂ ನ ಪೂರ್ಣರೂಪೇಣ ಪರಂತು ಆಂಶಿಕ ರೂಪೇಣ ಸ್ವೀಕೃತ್ಯ ತಸ್ಮಿನ್ ಉಪರಿಯೇವ ತತ್ರ ವ್ಯಾಖ್ಯಾನಂ ಭವತಿ, ನಿರೂಪಣಂ ಭವತಿ. ಅಥ ತರ್ಕಸಂಗ್ರಹ ಗ್ರಂಥಃ ತತ್ರ ಪ್ರಕರಣಗ್ರಂಥಃ ತತ್ರ ಶಾಸ್ತ್ರ ಸಂಬಂಧಿನಾಂ ಸರ್ವೇಷಾಂ ಪದಾರ್ಥಾನಾಂ ನಿರೂಪಣಂ ನ ಕೃತಂ. ತತ್ರ ಕೇವಲಂ ಪದಾರ್ಥಾನಾಂ ಉದ್ದೇಶಲಕ್ಷಣಂ ಚ ವರ್ತೇತೆ. ಉದ್ದೇಶ ನಾಮ ತತ್ರ ನಾಮ ಮಾತ್ರೇಣ ವಸ್ತು ಸಂಕೀರ್ತನ ಉದ್ದೇಶ, ಲಕ್ಷಣಂ ನಾಮ ಅಸಾಧಾರಣ ಧರ್ಮೋ ಲಕ್ಷಣಂ. ಪರೀಕ್ಷಾ ತತ್ರ ತರ್ಕಸಂಗ್ರಹ ಮೂಲಗ್ರಂಥೇನ ವಿದ್ಯತೆ. ಕಿಂಚಿತ್ ದಿಗ್ದರ್ಶನ ರೂಪೇಣ ದೀಪಿಕಾ ವ್ಯಾಖ್ಯಾನಿ ತತ್ರ ತತ್ರ ಪರೀಕ್ಷಾದಿಕಂ ತತ್ರ ದೃಶ್ಯತೆ. ಪುನಃ ತತ್ರ ತದನಂತರಂ ತತ್ರ ಗ್ರಂಥಸ್ಯ ಪರಿಚಯ, ಏಷಃ ಪ್ರಕರಣಗ್ರಂಥಃ, ಏಷಃ ಗ್ರಂಥಃ ತತ್ರ ನ್ಯಾಯ ವೈಶೇಷಿಕ ಗ್ರಂಥಃ. ಕಿಮರ್ಥಂ ಇತಿ ಚೇತ್ ತತ್ರ ನೈಯಾಯಿಕಾನಾಂ ವೈಶೇಷಿಕಾನಾಂ ಚ ಸಿದ್ಧಾಂತಾನಾಂ ಸಮನ್ವಯೀಕೃತಂ ಸ್ವರೂಪಂ ತತ್ರ ದೃಶ್ಯತೆ ಇತಿ ಕೃತ್ವಾ ಏಷಃ ಗ್ರಂಥಃ ತತ್ರ ನ್ಯಾಯ ವೈಶೇಷಿಕಃ ಗ್ರಂಥಃ ಇತಿ ಉಚ್ಯತೆ. ಅಸ್ಮಾಭಿಃ ತತ್ರ ಉದಾಹರಣರೂಪೇಣ ನಿದರ್ಶನರೂಪೇಣ ದೃಷ್ಟಂ ತತ್ರ ಪದಾರ್ಥಾನಾಂ ನೈಯಾಯಿಕಾನಾಂ ತತ್ರ ಷೋಡಶ ಪದಾರ್ಥಾಃ, ವೈಶೇಷಿಕಾಣಾಂ ಸಪ್ತ ಪದಾರ್ಥಾಃ, ಷೋಡಶ ಪದಾರ್ಥಾನಾಂ ಸಪ್ತ ಪದಾರ್ಥೇಷು ಏವ ಅಂತರ್ಭಾವಃ ಕೃತಃ, ತತ್ ನೈಯಾಯಿಕಾಣಾಂ ಅಪಿ ಅವಿಮತಮೇವ ವರ್ತತೆ ಇತಿ ಕೃತ್ವಾ ತತ್ರ ಸಮನ್ವಯಸ್ಯ ಏಕಂ ಉದಾಹರಣಂ ತತ್ರ ದೃಶ್ಯತೆ. ಏವಂ ರೀತ್ಯಾ ತತ್ರ ಸಮನ್ವಯಃ ಕೃತಃ ಇತಿ ವಕ್ತುಂ ಶಕ್ಯತೆ. ತದನಂತರಂ ಅಸ್ಮಾಭಿಃ ಮಂಗಲಶ್ಲೋಕಂ ಪಠಿತಂ, ಮಂಗಲಶ್ಲೋಕಃ ಪಠಿತಃ ನಿಧಾಯ ಹೃದಿ ವಿಶ್ವೇಶಂ ಇತಿ. ತತ್ರ ಮಂಗಲಶ್ಲೋಕಸ್ಯ ಕಾಚನ ತತ್ರ ಯೋಜನಾ ಭವತಿ, ಸಂರಚನಾ ಭವತಿ. ತತ್ರ ಕುಮಾರಿಲ ಭಟ್ಟಾಚಾರ್ಯೇಣ ತತ್ರ ವಿರಚಿತಃ ಶ್ಲೋಕಃ, ಶ್ಲೋಕವಾರ್ತಿಕ ಗ್ರಂಥಸ್ಥಃ ಶ್ಲೋಕಃ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಃ. ತತ್ರ ಮಂಗಲಶ್ಲೋಕೇ ಅನುಬಂಧ ಚತುಷ್ಟಯಸ್ಯಾಪಿ ನಿವೇಶನಂ ಭವೇತ್ ಇತಿ ತತ್ರ ಚಿಂತನಂ ವರ್ತತೆ. ತತ್ರ ಸಂಬಂಧಶ್ಚಾಧಿಕಾರಿಶ್ಚ ವಿಷಯಶ್ಚ ಪ್ರಯೋಜನಂ ವಿನಾನುಬಂಧಂ ಗ್ರಂಥಾದೌ ಮಂಗಲಂ ನೈವ ಶಶ್ಯತೆ ಇತಿ ಉಕ್ತಂ. ತತ್ರ ಸಂಬಂಧೋಪಿ ಭವೇತ್, ಅಧಿಕಾರಿ ಅಪಿ ಭವೇತ್, ವಿಷಯಶ್ಚ ಭವೇತ್, ಪ್ರಯೋಜನಂ ಅಪಿ ಭವೇತ್ ಇತಿ ಉಕ್ತಂ. ತದನಂತರಂ ಅಸ್ಮಾಭಿಃ ತತ್ರ ಜ್ಞಾನಾತ್ಮಕಂ ಕ್ರಿಯಾತ್ಮಕಂ ಶಬ್ದಾತ್ಮಕಂ ಮಂಗಲಂ ಭವತಿ ಇತ್ಯಪಿ ದೃಷ್ಟಂ. ತದನಂತರಂ ದೀಪಿಕಾ ವ್ಯಾಖ್ಯಾನಸ್ಯ ಅಧ್ಯಯನಂ ಕಿಮರ್ಥಂ, ತತ್ರ ಭಿನ್ನಾನಿ ವ್ಯಾಖ್ಯಾನಾನಿ ಸಂತಿ ಪರಂತು ತೇಷು ವ್ಯಾಖ್ಯಾನಂ ದೀಪಿಕಾ ಟೀಕಾ ದೀಪಿಕಾ ವ್ಯಾಖ್ಯಾನಂ ತತ್ರ ವಿಲಕ್ಷಣಂ ವ್ಯಾಖ್ಯಾನಂ ಕುಧ ಇತಿ ಚೇತ್ ತತ್ರ ಗ್ರಂಥಕರ್ತ್ರ ಸ್ವಯಮೇವ ದೀಪಿಕಾ ವ್ಯಾಖ್ಯಾನಂ ತತ್ರ ಕೃತಂ ಇತಿ ಕೃತ್ವಾ ತಸ್ಯ ಅಭಿಪ್ರಾಯಸ್ಯ ಸುವಿಶದಂ ಪ್ರಕಟನಂ ತತ್ರ ವರ್ತತೆ ಇತಿ ದೀಪಿಕಾ ವ್ಯಾಖ್ಯಾನಸ್ಯ ತತ್ರ ವೈಲಕ್ಷಣ್ಯಂ. ಅತಃ ಅಸ್ಮಾಭಿಃ ದೀಪಿಕಾ ವ್ಯಾಖ್ಯಾನಮೇವ ಪಠ್ಯತೆ. ಅಸ್ತು, ತರ್ಹಿ ತತ್ರ ಇದಾನಿಂ ತತ್ರ ಗ್ರಂಥಮೇವ ಅನುಸರಾಮಃ. ಇದಾನಿಂ अस्माभिः तत्र प्रतिजानीते निधाय इति एतावत्पर्यन्तं दृष्टम् आसीत् तत्र प्रथमे वर्गे. इदानीं ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति, मङ्गले कृतेपि कादम्बर्यादौ निर्विघ्नपरिसमाप्त्यदर्शनात् मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनात् अन्वयव्यतिरेकव्यभिचारात् इति चेत् न कादम्बर्यादौ विघ्नबाहुल्यात् समाप्ति अभावः, किरणावल्यादौ तु ग्रन्थात् बहिरेव मङ्गलं कृतम् अतो न व्यभिचारः इति तत्र ग्रन्थः इति पुस्तके अस्ति. तर्हि अत्र आशयः कः इत्युक्ते ननु इति आरभ्य तत्र पूर्वपक्षिणः आक्षेपः, नाम पूर्वपक्षी मङ्गलस्य समाप्तिसाधनत्वं न स्वीकरोति, नाम समाप्तिकारणत्वं मङ्गलस्य समाप्तिकारणत्वं न स्वीकरोति, नाम मङ्गलसमाप्ति समाप्त्योः द्वयोः कार्यकारणभावः नास्ति एव इति वदति. किमर्थं नास्ति इति अत्र उदाहरणं दत्तं वर्तते. पूर्वपक्षिण तत्र उपन्यस्तं वदति, मङ्गले कृतेपि कादम्बर्यादौ निर्विघ्नपरिसमाप्ति अदर्शनात्, नाम मङ्गलं कारणं यदि स्यात् तर्हि कादम्बरीग्रन्थस्य समाप्ति किमर्थं न जाता इति प्रश्नः. नाम तत्र कादम्बरीग्रन्थे तत्र बहवः मङ्गलश्लोकाः विद्यन्ते, तर्हि प्रभूतं मङ्गलं कृतं खलु, किमर्थं समाप्ति न दृश्यते? समाप्ति न दृश्यते यदि कार्यकारणभावः स्यात् तर्हि समाप्तिपि स्यात्, परन्तु समाप्ति न जाता. अतः कारणम् आसीत् परन्तु कार्यं कार्यरूपेण अभिमतं यत् या समाप्तिः सा न दृष्टा, सा न जाता. इत्यतः पूर्वपक्षी वदति तत्र कारणसत्त्वे कार्यसत्त्वं स्यात् इति कारणकार्यकारणभावः द्वयोः यदि विद्यते चेत् कारणसत्त्वे कार्यसत्त्वं भवेदेव, परन्तु अत्र कारणसत्त्वे नाम मङ्गलसत्त्वेपि कार्य असत्त्वं समाप्ति असत्त्वम् इति दृश्यते. अतः तत्र अन्वयव्यभिचारः, कारणसत्त्वे कार्यसत्त्वम् इति अन्वयसहचारः, कारणसत्त्वे कार्य अभावः अन्वयव्यभिचारः. तत्र अन्वयव्यभिचारज्ञानम् अन्वयसहचारज्ञानस्य प्रतिबन्धकः, अन्वयसहचारज्ञानस्य प्रतिबन्धकः भवति चेत् तत्र कार्यकारणभावज्ञानस्यापि प्रतिबन्धको भवति. अतः अत्र अन्वयसहचारदर्शनात् समाप्तिसाधनत्वं नास्ति इति अन्वयमुखेन वदति. इदानीं व्यतिरेकव्यभिचारप्रदर्शनमुखेन पुनः उदाहरणं दत्तमस्ति अत्र, मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनात् इति वदति. नाम इदानीं किरणावली नाम तत्र उदयनाचार्यस्य प्रशस्तपादभाष्योपरि व्याख्यानं, तत्र कणादमहर्षेः वैशेषिकसूत्रम् इति ग्रन्थस्य उपरि प्रशस्तपादेन भाष्यं कृतं, तदेव पदार्थधर्मसङ्ग्रहः इति नाम्ना प्रसिद्धः ग्रन्थः वर्तते. तस्य ग्रन्थस्योपरि किरणावली नाम्नी टीका उदयनाचार्यैः रचिता. तत्र उदयनाचार्यैः मङ्गलं न कृतं परन्तु समाप्ति दृश्यते इति पूर्वपक्षी वदति. तर्हि मङ्गलं न कृतं नाम कारण अभावः, कारणसत्त्वं कारणव्यतिरेकः वर्तते. कारणव्यतिरेकः नाम अभावः, कारणस्य अभावः वर्तते. यदि कार्यकारणभावः स्यात् तर्हि कारणाभावे कार्याभावोऽपि स्यात्, परन्तु अत्र कार्यसत्त्वं कारणभावः परन्तु कार्याभावः नास्ति, कार्यभावः एव अस्ति, कार्यसत्त्वमेव अस्ति इति कृत्वा अत्र व्यतिरेकव्यभिचारः. अत्र व्यतिरेकसहचारः नाम द्वयोः अपि व्यतिरेकः स्यात्, कारणस्य व्यतिरेके कार्यस्यापि व्यतिरेकः स्यात्, परन्तु अत्र कारणस्य व्यतिरेके कार्यस्य व्यतिरेकः नास्ति, कार्यस्य सत्त्वमेव अस्ति इति कृत्वा अत्र व्यतिरेकव्यभिचारः. व्यतिरेकव्यभिचारज्ञानम् अपि कार्यकारणभावज्ञानं प्रति प्रतिबन्धकम् इति कृत्वा अत्र समाप्तिसाधनत्वं न सिद्ध्यति, अत्र समाप्तिसाधनत्वं नास्ति एव इति पूर्वपक्षी वदति. इदानीं तत्र सिद्धान्ती किं वदति इत्युक्ते, भोः अत्र साक्षात् कार्यकारणभावः मम न अभिप्रायः नास्ति, अत्र व्यापाररूपेण विघ्नध्वंसः इति चिन्तनीयं नाम तत्र मङ्गलं समाप्तिं प्रति साधनं तु अस्ति एव कारणं तु अस्ति एव परन्तु विघ्नध्वंसद्वारा द्वारत्वं नाम तत्र किं व्यापारत्वं व्यापारः विघ्नध्वंसव्यापारम् उत्पाद्य व्यापारः पुनः तत्र समाप्तिं उत्पादयति इति अर्थः तत्र व्यापारस्य तत्र लक्षणं किम् इत्युक्ते तज्जन्यत्वे सति तज्जन्यजनकत्वम् अस्माभिः पूर्वं दृष्टमेव अतः तत्र अत्र तस्य विवरणम् अत्र न क्रियते अत्र किं वदति सिद्धान्ती इत्युक्ते तत्र मङ्गलं विघ्नध्वंसद्वारा एव कारणं साक्षात् कारणं नास्ति नाम विघ्नध्वंसद्वारा कारणं तेन किम् आयातं भवति विघ्नध्वंसस्य द्वारत्वम् आनीयते चेत् तेन को लाभः इत्युक्ते इदानीं सिद्धान्ती वदति कादम्बर्यादौ विघ्नबाहुल्यात् समाप्ति अभावः नाम तत्र विघ्नबाहुल्यमासीत् कादम्बरीग्रन्थे अतः विघ्नस्य अपेक्षया तादृशं मङ्गलं न कृतं येन तादृशस्य विघ्नस्य नाशः स्यात् नाम तत्र न केवलं सामान्यं मङ्गलं समाप्तिं प्रति कारणं परन्तु विशिष्टं मङ्गलमेव समाप्ति प्रति कारणं कीदृशं विशिष्टं मङ्गलम् इत्युक्ते विघ्नान्यूनसङ्ख्याकं मङ्गलं नाम तत्र विघ्नस्य अपेक्षया अधिकं मङ्गलं भवति चेदपि सम्यक् वरं समसङ्ख्याकं मङ्गलम् अस्ति चेदपि वरं नाम तत्र यावन्तः विघ्नाः सन्ति तावन्ति मङ्गलानि भवन्ति चेदपि तद्वरं परन्तु न्यूनं तु न स्यात् मङ्गलं न्यूनं न स्यात् अतः एव सिद्धान्ती वदति विघ्नान्यूनसङ्ख्याकं मङ्गलं तादृशं मङ्गलमेव कारणं न तु सामान्यं मङ्गलं न यत्किञ्चित् मङ्गलं परन्तु विशिष्टं मङ्गलं तत्र वैशिष्ट्यं कीदृशम् इत्युक्ते विघ्नान्यूनसङ्ख्याकत्वरूपं वैशिष्ट्यं तत्र भवेत् तदेव कारणं न तु तत्र सामान्यं मङ्गलं कारणम् अतः अत्र समन्वयः कथं भवति इत्युक्ते तत्र मङ्गले कृतेपि कादम्बर्यादौ निर्विघ्नपरिसमाप्ति अदर्शनात् इति यदुक्तं तत्र किं वदति इत्युक्ते इदानीं कादम्बरीग्रन्थे तादृशं मङ्गलं नासीत् नाम तत्र विघ्नान्यूनसङ्ख्याकं मङ्गलं नासीत् मङ्गलस्य अपेक्षया विघ्नाः एव अधिकाः आसन् इति कृत्वा कादम्बरीग्रन्थस्य समाप्तिः न जाता इति अत्र समाधानम् उच्यते विघ्नान्यूनसङ्ख्याकं मङ्गलमेव कारणं न तु केवलं सामान्यं मङ्गलं तादृशं विशिष्टं मङ्गलं कादम्बरीग्रन्थे न आसीत् इति कृत्वा कारणं नासीत् अतः कार्याभावेपि न क्षतिः अत्र अन्वयव्यभिचारः न दृश्यते कुतः इति चेत् कारणमेव नास्ति अन्वयव्यभिचारः कथं प्रदर्शितः आसीत् कारणसत्त्वे कार्याभावः इति कृत्वा तत्र मङ्गलसत्त्वेपि कार्यसमाप्ति अभावः इति प्रदर्शितः पूर्वम् इदानीं सिद्धान्तिना किम् उच्यते इत्युक्ते अत्र कारणमेव नास्ति तत्र विघ्नान्यूनसङ्ख्याकं मङ्गलम् एव कारणं तादृशं कारणम् अत्र नास्ति इति कृत्वा अत्र अन्वयव्यभिचारो न वर्तते अस्तु तावत् अन्वयव्यभिचारस्य परिहारः कृतः परन्तु अत्र व्यतिरेकव्यभिचारस्य परिहारः कथं क्रियते इत्युक्ते तत्र उदयनाचार्याः तत्र शिष्टाः तर्हि शिष्टाः सन्ति चेत् तत्र शिष्टाचारपरम्पराप्राप्तं मङ्गलं तु क्रियते एव तर्हि उदयनाचार्यैः मङ्गलं कृतं परन्तु केवलं तत्र ग्रन्थे न निवेशितं ग्रन्थे सर्वथैव मङ्गलं निवेशनीयम् इति निर्बन्धो नास्ति खलु मङ्गलं कदाचित् तत्र ग्रन्थकाराः किं चिन्तयन्ति इत्युक्ते मङ्गलं करणीयं सर्वथा ग्रन्थादौ मङ्गलं करणीयम् इति परम्पराप्राप्तं सर्वेपि इति प्रसिद्धं वर्तते अतः सर्वेपि जानीयुः एव अतः तत्र ग्रन्थे निबन्धनं करणीयं मङ्गलस्य इति निर्बन्धो नैव अस्ति इति कृत्वा तत्र उदयनाचार्यैः स्वस्मिन् ग्रन्थे मङ्गलं न निवेशितं परन्तु ग्रन्थात् बहिरेव मङ्गलं कृतं कायिकं भवतु वा मानसिकं भवतु वा तत्र ज्ञानात्मकं भवतु वा मङ्गलं ग्रन्थात् बहिरेव कृतम् अतः कारणम् अस्ति कारणमासीत् अथवा तत्र समाप्तिः अपि अस्ति अतः तत्र व्यतिरेकव्यभिचारस्य परिहारः व्यतिरेक नाम कारणस्य अभावः पूर्वं प्रदर्शितः इदानीं कारणस्य सद्भावः एव प्रदर्शितः ग्रन्थात् बहिरेव मङ्गलं कृतम् इति कृत्वा कारणस्य सद्भावः एव वर्तते अतः अत्र व्यतिरेकव्यभिचारः नास्ति कुतः इति चेत् तत्र कारणस्य व्यतिरेको व्यतिरेकः एव न विद्यते इति कृत्वा तत्र व्यतिरेकव्यभिचारः नास्ति इति परिहारः कृतः इदानीं तत्र पुनः प्रथमं ग्रन्थे तत्र श्रुतिबोधितकर्तव्यताकं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकम् इष्टदेवतानमस्कारलक्षणं मङ्गलम् इति प्रथमम् उक्तमासीत् इदानीं तदेव इदानीम् उत्थापयति ननु मङ्गलस्य कर्तव्यत्वे किं प्रमाणम् इति तत्र मङ्गलस्य श्रुतिबोधितकर्तव्यता अस्ति इति प्रमाणयितुं तत्र पुनः मङ्गलस्य कर्तव्यत्वे किं प्रमाणम् इति पृच्छति तर्हि प्रमाणमिति पुनः पूर्वपक्षी एव पृच्छति मङ्गलस्य कर्तव्यत्वे किं प्रमाणम् इदानीं प्रमाणमिति चेत् इति प्रश्नः अस्ति चेत् तत्र सिद्धान्ती वदति भोः प्रमाणमस्तिरेव अनुमानप्रमाणम् अस्ति इदानीं पश्यतु कर्तव्यत्वे प्रमाणं नाम अनुमानप्रमाणं साक्षात् नास्ति अनुमानप्रमाणद्वारा श्रुतिवाक्यम् अनुमीयते श्रुतिवाक्यस्य अवगमनेन तत्र कर्तव्यता अस्ति एव ज्ञायते इति वदति तर्हि शिष्टाचारानुमितश्रुतेरेव प्रमाणत्वात् अस्माभिः अद्यत्वे ये याः श्रुतयः अस्माभिः दृश्यन्ते तासु श्रुतिषु न दृश्यते परन्तु सर्वाः अपि श्रुतयः अद्यत्वे उपलब्धाः न सन्ति इति कृत्वा तत्र अस्ति काचन श्रुतिः तत्र समाप्तिकामो मङ्गला मङ्गलमाचरेत् इति श्रुतिवाक्यं वर्तते इति अनुमिति अनुमानादेव ज्ञायते कथं ज्ञायते इति इत्युक्ते तथा हि इति पुनः समाप्तिकामो मङ्गलमाचरेत इति श्रुतिवाक्यम् अस्ति इति पूर्वमुक्तं तदेव दृढीकुर्वन् वदति मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिकाविगितशिष्टाचारविषयत्वात् दर्शादिवत् इति वदति दर्शयागादिवत् इति वक्तुं शक्यते दर्श नाम अमावस्या तस्मिन् दिने ये यागाः क्रियन्ते तेषां विषये अत्र अस्तु तर्हि अत्र मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिकाविगितशिष्टाचारविषयत्वात् इति उक्तं नाम अत्र ऐदं प्राथम्येन अस्मिन् ग्रन्थे इदानीम् अनुमानवाक्यम् अत्र अनुमानस्य प्रयोगः वर्तते मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिकाविगितशिष्टाचारविषयत्वात् इति उक्तं तर्हि अत्र पर्वतवह्निमान् धूमात् इत्यत्र पर्वतः पक्षः धूमेन हेतुना कुत्र साध्यते इत्युक्ते पर्वते साध्यते इति यत्र साध्यते सः पक्षः केन साध्यते धूमेन हेतुना साध्यते इति कृत्वा धूमः हेतुः यत् साध्यते बह्निः साध्यते इति कृत्वा बह्निः साध्यं यथा महानसम् इति अनुमानवाक्ये उक्तं नाम पर्वते वह्निमान् पर्वतो वह्निमान् धूमात् यथा महानसम् इति दृष्टान्त महानसमेव दृष्टान्तः तथैव अत्र किं किम् अस्ति इत्युक्ते मङ्गलं पक्षः वेदबोधितकर्तव्यताकत्वं मङ्गले विधीयते मङ्गलम् उद्दिश्य वेदबोधितकर्तव्यताकत्वं विधीयते नाम वेदबोधितकर्तव्यताकं मङ्गलम् अस्ति इति उच्यते तत्र हेतुवाक्यं किम् इत्युक्ते अलौकिकाविगितशिष्टाचारविषयत्वात् अलौकिकाविगितशिष्टाचारविषयत्वं हेतुः दृष्टान्तः दर्शयागाः इति तर्हि मङ्गलं पक्षः वेदबोधितकर्तव्यताकत्वं साध्यम् अलौकिकाविगितशिष्टाचारविषयत्वं हेतुः अस्तु तर्हि इदानीं तादृशम् अत्र मङ्गल अत्र अनुमानस्य स्वरूपं तर्हि इदानीं तत्र अलौकिकाविगितशिष्टाचारविषयत्वम् इति उक्तम् अत्र दलसार्थक्यं किं किम् अस्ति कथं वा दलसार्थक्यम् इति किञ्चिदिव तत्र आलोचनीयं तर्हि अत्र तत्र हेतुवाक्यमस्ति अलौकिकाविगितशिष्टाचारविषयत्वम् इति हेतुः तर्हि हेतुघटकदलानां प्रयोजनं किम् इत्युक्ते तत्र व्यभिचारदोषवारणं निवारणमेव प्रयोजनं तत्र दोषाः तत्र विविधाः भवन्ति, परन्तु हेतुघटकदलानां व्यभिचारदोषपरिहार एव प्रयोजनम् इति उक्तं। तर्हि अत्र हेतुघटकदलानि कानि इत्युक्ते अलौकिकत्वम्, अविहितत्वं, शिष्टाचारविषयत्वम् इति। तर्हि अत्र किमस्ति इत्युक्ते, नाम पुनः किञ्चित् तत्र अनुमानवाक्यस्य अर्थः कः इत्युक्ते, मङ्गलं वेदबोधितकर्तव्यताकं, वेदबोधितकर्तव्य वेदेन बोधिता कर्तव्यता यस्य इति, वेदबोधितकर्तव्यताकं बहुव्रीहिः, कीदृशं तत्र तत्र कीदृशी कर्तव्यता विद्यते इत्युक्ते, समाप्तिकामो मङ्गलमाचरेत इति तत्र विधिवाक्यं, विधिवाक्यविहिता कर्तव्यता वर्तते इति अर्थः। तर्हि किमर्थम् एवम् उच्यते इत्युक्ते, अत्र व्याप्तिः अस्ति, व्याप्तिः अस्ति, व्याप्तेः स्वरूपं कीदृशम् इत्युक्ते, यत्र यत्र अलौकिका अलौकिकाभिहितशिष्टाचारविषयत्वं, तत्र तत्र वेदबोधितकर्तव्यता कत्वम्। व्याप्तेः स्वरूपं कीदृशम् अस्ति इत्युक्ते, यत्र यत्र अलौकिकाभिहितशिष्टाचारविषयत्वं, तत्र तत्र वेदबोधितकर्तव्यता कत्वम्। अस्तु, तर्हि इदानीम् अत्र मङ्गले अपि अलौकिकाभिहितशिष्टाचारविषय विषयत्वं वर्तते। कुतः इति चेत्, तत्र शिष्टाः मङ्गलं कुर्वन्ति, तर्हि अलौकिकाभिहितशिष्टाचारविषयत्वं मङ्गले वर्तते। अतः मङ्गले हेतुः अस्ति इति कृत्वा मङ्गले साध्यमपि अस्ति, वेदबोधितकर्तव्यताकत्वमपि अस्ति। कुतः इति चेत्, व्याप्तिः अस्ति, यत्र यत्र अलौकिकाभिहितशिष्टाचारविषयत्वं, तत्र तत्र वेदबोधितकर्तव्यताकत्वम् इति व्याप्तिः अस्ति इति उक्तम्। कुतः इति चेत्, तत्र तत्र अलौकिकाभिहितशिष्टाचारविषयत्वं तत्र दर्शयागादौ दृश्यते। तर्हि दर्शयागातौ वेदबोधितकर्तव्यताकत्वमपि दृश्यते। तर्हि तत्र दृष्टान्तभूयो दर्शनेन, यत् महानसे पुनः पुनः भूयो दर्शनेन, तत्र धूमवन्योः सहचारदर्शनेन, तत्र सहचारव्याप्तिज्ञानं जायते, व्याप्तिग्रहः जायते। नाम यत्र यत्र धूमः, तत्र तत्र बह्नी इति व्याप्तिज्ञानं, तत्र महानसे महानसं दृष्ट्वा पुनः पुनः भूयो दर्शनेन व्याप्तिग्रहः जायते, व्याप्तिज्ञानं जायते। तर्हि अत्र दर्शयागादिवदपि तत्र पुनः पुनः तत्र तत्र अलौकिकाभिहितशिष्टाचारविषयत्वम् अस्ति, तत्र वेदबोधितकर्तव्यता कथमपि अस्ति। दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इति वेदबोधितकर्तव्यता अपि अस्ति दर्शयागादौ। अत्र तर्हि अलौकिकाभिहितशिष्टाचारविषयत्वमपि अस्ति तत्र वेदबोधितकर्तव्यता कर्तव्यताकत्वमपि अस्ति दर्शादौ। अतः द्वयोः हेतुसाध्ययोः सामानाधिकरण्यं दर्शयागादौ विद्यते। तदेव तस्यैव भूयो दर्शनेन तत्र व्याप्तिग्रहः जायते। कीदृशी व्याप्ति इत्युक्ते, यत्र यत्र अलौकिकाभिहितशिष्टाचारविषयत्वं, तत्र तत्र वेदबोधितकर्तव्यता कर्तव्यता। इदानीं व्याप्तिग्रहानन्तरं पुनः मङ्गले हेतुः दृश्यते, मङ्गले अलौकिकाभिहितशिष्टाचारविषयत्वं दृश्यते, अस्माभिः व्याप्तिः गृहिता। तर्हि व्याप्तिः गृहिता इति कृत्वा मङ्गले हेतुः अस्ति, मङ्गले अलौकिकाभिहितशिष्टाचारविषयत्वं वर्तते, अस्माकं व्याप्तेः स्वरूपम् अस्ति यत्र यत्र अलौकिकाभिहितशिष्टाचारविषयत्वं, तत्र तत्र वेदबोधितकर्तव्यताकत्वम्। अतः मङ्गले वेदबोधितकर्तव्यताकत्वम् अस्ति इति अनुमानस्य स्वरूपम्। इदानीं हेतुघटकदलानां तत्र व्यभिचारवारणाय कथं तत्र तेषां प्रयोजनं किं किम् अस्ति इति पश्यामः। तत्र किं वदति ग्रन्थकारः इत्युक्ते, भोः तर्हि भोजनादौ व्यभिचारवारणाय अलौकिकेति। नाम तत्र किम् उक्तम् इत्युक्ते, यत्र यत्र अलौकिका यत्र यत्र अलौकिकाभिहितशिष्ट अलौकिकाभिहितशिष्टाचारविषयत्वम् उक्तं, परन्तु इदानीं यदि तत्र अलौकिकपदं यदि अलौकिकपदस्य अनुपादाने यदि न स्वीक्रियते, तर्हि हेतुवाक्यं कीदृशं भवति इत्युक्ते, अभिहितशिष्टाचारविषयत्वं, तदेव हेतुवाक्यं भवति। यत्र यत्र अभिहितशिष्टाचारविषयत्वं, तत्र तत्र वेदबोधितकर्तव्यता कर्तुम् इति तत्र व्याप्तेः स्वरूपं भवति, परन्तु तादृशी व्याप्तिः नास्ति एव। कुतः इति चेत् तत्र पश्यामः तादृशी व्याप्ति नैव भवति कुतः इति चेत् तत्र भोजनादौ तत्र अभिहितशिष्टाचारविषयत्वं वर्तते एव शिष्टाः भोजनं कुर्वन्ति भोजनं न कुर्वीत इति तत्र धर्मशास्त्रनिषिद्धत्वमपि नास्ति अभिहितत्वं नाम धर्मशास्त्रनिषिद्धत्वं तर्हि धर्मशास्त्राणि भोजनं न करणीयम् इति निषेधवाक्यं न वदन्ति खलु तर्हि अभिहितत्वम् अपि नास्ति शिष्टानाम् आचारविषयत्वमपि अस्ति तर्हि तत्र भोजने अभिहितशिष्टाचारविषयत्वम् अस्ति हेतुः अस्ति परन्तु भोजनं करणीयं नाम तत्र क्षुधानिवृत्तिकामो भोजनम् आचरेत् इति श्रुतिवाक्यं तु नैव दृश्यते खलु नाम तत्र विधिवाक्यात् भोजनं न विहितं वेदेषु वेदेषु भोजनं कुर्वीत इति वाक्यं नास्ति तर्हि तत्र वेदबोधितकर्तव्यताकर्तं भोजनादौ नास्ति परन्तु अभिहितशिष्टाचारविषयत्वम् अस्ति तर्हि अत्र अन्वयव्यभिचारः नाम अत्र किमस्ति इत्युक्ते हेतुसत्त्वं परन्तु साध्यासत्त्वं हेतुरस्ति साध्यं नास्ति इति कृत्वा अत्र व्यभिचारो भवति अतः तद्वारणाय अलौकिकपद उपादानम् अलौकिकपदनिवेशनेन किं भवति इत्युक्ते तत्र भोजने हेतुरेव नास्ति इति आयाति कथं भोजने हेतुरेव नास्ति इत्युक्ते तत्र अलौकिकपदस्य को वा अर्थः इति परिशीलनीयम् अलौकिकपदस्य अर्थः कृतः तत्र विद्यतिरिक्तप्रमाणगम्यत्वं लौकिकत्वं विद्यतिरिक्तप्रमाण अगम्यत्वम् अलौकिकत्वं विद्यतिरिक्तप्रमाणगम्यत्वं लौकिकत्वं तद्भिन्नत्वम् अलौकिकत्वं तर्हि अत्र भोजनं करणीयम् इति विधिवाक्यात् न ज्ञातं भोजनं करणीयमिति अस्मात् रागादिप्राक्तम् अस्माभिः भोजनं न कुर्मः चेत् अस्माकं शरीराणि तत्र जीर्णानि शीर्णानि भवेयुः मरणमपि जायेत तर्हि भोजनं तु करणीयम् अस्माभिः साक्षात् प्रत्यक्षमेव प्रमाणमस्ति विद्यतिरिक्तमेव प्रमाणमस्ति अस्माकं लौकिकत्वं भोजने अस्ति अलौकिकत्वं नास्ति नाम विद्यतिरिक्तप्रमाणगम्यत्वमेव अस्ति विद्यतिरिक्तप्रमाण अगम्यत्वं नास्ति इति कृत्वा भोजने अलौकिक अविहितशिष्टाचारविषयत्वस्य असत्त्वात् नाम तत्र अलौकिकत्वं नास्ति इति कृत्वा अलौकिक अविहितशिष्टाचारविषयत्वम् अपि नास्ति अतः तत्र इदानीं हेतुरेव नास्ति चेत् तत्र व्यभिचारस्य परिहारः जायते अत्र अलौकिक इति पद उपादाने इदानीं पुनः तर्हि अभिहितत्वं किमर्थम् आवश्यकम् इदानीम् इत्युक्ते पुनः ग्रन्थकारवति रात्रिश्राद्धादौ व्यभिचारवारणाय अभिहितेति इति वदति नाम इदानीं पश्यामः रात्रिश्राद्धादौ अलौकिकत्वम् अस्ति वा न वा अलौकिकत्वम् अस्ति एव कुतः इति चेत् श्राद्धं कुर्वीत इति विधिवाक्यं तु वर्तते तर्हि श्राद्धं कुर्वीत इति वाक्येनैव रात्रिश्राद्धमपि कर्तुं शक्यते इति ज्ञानं भवत्येव तर्हि अलौकिकत्वं तत्र वर्तते कुतः इति चेत् तत्र विद्यतिरिक्तप्रमाणगम्यत्वं विधिप्रमाणगम्यत्वमेव वर्तते इति अत्र किञ्चित् सावधानेन भवितव्यम् अत्र विधिबोधितकर्तव्यताकत्वम् अत्र रात्रिश्राद्धादौ अस्ति इति न उक्तम् अत्र विधि अतिरिक्तप्रमाण अगम्यत्वं वर्तते इति उक्तं तर्हि तत्र विधिवाक्यात् नाम विधिवाक्यात् न उक्तं साक्षात् रात्रिश्राद्धं करणीयम् इति श्राद्धं करणीयम् इति उक्तं तर्हि तत्र नियमाः सन्ति तत्र श्राद्धं कदा करणीयम् इत्यादयः नियमाः तत्र सन्ति तत्र समयः निर्धारितः परन्तु रात्रौ श्राद्धं न करणीयम् इति साक्षात् न उक्तं वेदेषु न करणीयमिति साक्षात् न उक्तं परन्तु श्राद्धं करणीयमिति उक्तं खलु तर्हि श्राद्धं करणीयमिति उक्तत्वादेव रात्रौ अपि श्राद्धं कर्तुं शक्यते इति ज्ञानं तत्र विधिवाक्यात् एव जातमिति कृत्वा तर्हि विधिवाक्यगम्यत्वमेव अस्ति विद्यतिरिक्तप्रमाण अगम्यत्वम् एव अस्ति इति कृत्वा तत्र परन्तु वेदबोधितकर्तव्यताकत्वं नास्ति। वेदे साक्षात् रात्रौ श्राद्धं करणीयम् इति न उक्तं। वेदे साक्षात् रात्रौ श्राद्धं करणीयम् इति अनुक्तत्वात् तत्र वेदबोधितकर्तव्यताकत्वं नास्ति। परन्तु धर्मशास्त्रादौ तत्र रात्रिश्राद्धं निन्दितं वर्तते। रात्रिश्राद्धं तत्र धर्मशास्त्रादौ तत्र शास्त्रादौ रात्रिश्राद्धं निषिद्धं वर्तते, निन्दितं वर्तते, विगीतं वर्तते, अभिगीतत्वं न वर्तते, अभिगीतं न वर्तते इति कृत्वा अभिगीत इति पदनिवेशनेन तत्र रात्रिश्राद्धाद् रात्रिश्राद्धं विगीतं, रात्रिश्राद्धे विगीतत्वं वर्तते इति कृत्वा अभिगीतत्वं न वर्तते इति कृत्वा अलौकिका अभिगीतशिष्टाचारविषयत्वं रात्रिश्राद्धादौ न वर्तते, अतः हेतुरेव नास्ति, अतः तत्रापि व्यभिचारस्य निवारणं, तत्रापि व्यभिचारस्य परिहारः जायते। इदानीं ग्रन्थकारः वदति शिष्टपदं स्पष्टार्थम् इति वदति, नाम तत्र अलौकिक अभिगीतशिष्टाचारविषयत्वम् इति उक्तं, तत्र अलौकिकशिष्टा अलौकिक अभिगीत आचारविषयत्वं केवलम् उच्यते चेदपि पर्याप्तम्, अत्र शिष्टपदं न आवश्यकम् इति ग्रन्थकारः वदति। स्पष्टार्थम् उक्तं, तस्य को वा अर्थः इत्युक्ते, नाम तत्र शिष्टपदं न निवेशयामः, शिष्टपदस्य अनुपादानि अपि अस्माकं यदि चिन्तनं वयं कुर्मः, भोः अलौकिक तत्र अभिगीत आचारविषयत्वम् इति उक्तं, तत्र तत् केषां तत् तादृशी प्रवृत्तिः भवति इत्युक्ते, इदानीं चिन्तनं कृत्वा वयं जानीमः शिष्टाः एव केवलं तादृशं कार्यं कुर्वन्ति, नाम तेषामेव अलौकिक अभिगीत आचारविषयत्वं तेषां भवति इति कृत्वा तत्र शिष्टाः एवं कुर्वन्ति इति ज्ञानं जायते किञ्चित् चिन्तनानन्तरं। परन्तु एषः ग्रन्थः बालानां सुखबोधाय तत्र ग्रन्थकारेण रचितः, तर्हि किमर्थम् एतादृशं चिन्तनं, किञ्चिदिव स्पष्टं भवेत् तत्र पदस्य निवेशनेन इति कृत्वा स्पष्टप्रतिपत्त्यर्थं तत्र सरलरूपेण यथा बालानां ज्ञानं जायेत इति तत्र शिष्टपदं निवेशितम् इति ग्रन्थकारः वदति। पुनः तत्र पूर्वपक्षी वदति, भोः तर्हि तत्र शिष्टपदस्य अनुपादाने जलताडने तत्र व्यभिचारः भवति खलु इत्युक्ते, तत्र ग्रन्थकारः किं वदति इत्युक्ते, भोः व्यभिचारः न भवति कुतः इति चेत् तत्र जलताडनं किं नाम इत्युक्ते, कश्चन तत्र वालिशं कार्यं जलताडनं, जले कोऽपि तटागे गच्छति, जले पुनः गत्वा पुनः जलस्य ताडनम् एवं हस्तेन जलस्य चालनं ताडनं करोति, किञ्चित् तत्र वालिशमेव कार्यं, तादृशकार्यस्य विशेषफलं नास्ति इति कृत्वा तत्र निन्दित यत्र तत्र विशेषफलं नास्ति तादृशं कर्म न कुर्वीत, न कुर्यान् निष्फलं कर्म इति तत्र धर्मशास्त्रे उक्तत्वात् तत्र विगितत्वमेव वर्तते इति कृत्वा विगितत्वपद उपादानि एव तत्र जलताडने व्यभिचारस्य परिहारः भवति इति कृत्वा शिष्टपदस्य तत्र आवश्यकता नास्ति। तत्र न कुर्यान् निष्फलं कर्म इति धर्मशास्त्र उक्तत्वात् एव जलताडने व्यभिचारस्य वारणं भवति इति कृत्वा शिष्टपदं तत्र न आवश्यकं, केवलं स्पष्टार्थमिति ग्रन्थकारः वदति। इदानीं किञ्चिदिव तत्र यदि गभीरतमं चिन्तनं क्रियते चेत् अत्र अलौकिकाभिगितशिष्टाचारविषयत्वम् अत्र किञ्चिदिव अलौकिकपदस्य किमर्थम् आवश्यकता इति मनसि विचाराः तत्र भवेयुः। तत्र मुक्तावल्यादिग्रन्थेषु उद्ग्रन्थेषु विशेषरूपेण तत्र मुक्तावलीग्रन्थस्य उपरि अतीव विशदं व्याख्यानं तत्र दिनकरी नाम्नि टीकायां वर्तते, तत्र तु अलौकिकपदमेव न उपात्तं, केवलम् अभिगीतशिष्टाचारविषयत्वम् इति एव हेतुरूपेण स्वीकृतं। तादृशं गभीरचिन्तनम् अत्र केवलं ग्रन्थकारः तत्र बालानां सुखबुधाय ग्रन्थं करोति इति कृत्वा किञ्चित् स्थूलरूपेण अत्र अनुमानस्य स्वरूपं प्रदर्शितं भवतु नाम तत्र अग्रेसरामः। इदानीं किञ्चिदिव अत्र तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः इति उक्तं, तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः नाम तत्र तर्कसङ्ग्रहः अस्य ग्रन्थस्य नाम। तर्हि तर्कसङ्ग्रहः तर्क इति पदस्य को वा अर्थः? तत्र अस्माकं सामान्यव्यवहारे तर्कपदस्य अर्थः तत्र वितर्क नाम विचाराः, ऊहापोह इत्यादिकं भवति। न्यायशास्त्रे तु तर्कशब्द तर्कपदं पारिभाषिकं पदं, व्याप्यस्य आरोपात् व्यापकस्य आरोपः तर्कः इति न्यायशास्त्रे। तत्र अनुमानखण्डे यदा वयं परिशीलनं कुर्मः तदा एषः विषयः तत्र आयाति। परन्तु अत्र तु तत्र अर्थः भिन्नः, द्वाभ्यामपि भिन्नः अर्थः अत्र वर्तते। अत्र तर्क्यन्ते इत्यनेन ग्रन्थकारः किं वदति? प्रतिपाद्यन्ते। पुनः तर्कः इत्युक्ते तर्काः इत्युक्ते तर्क्यन्ते इति वदति। तत्र कर्मरूपेण नाम तत्र तर्क्यन्ते इति तर्काः इति उक्तम्। तर्कपदस्य तर्कघटितमेव तत्र प्रतिपादनं क्रियते चेत् तत्र विशेषः कोऽपि लाभः भवति वा? न भवत्येव। तर्हि तर्कः इत्युक्ते तर्क्यन्ते इति वदामः चेत् किञ्चिदिव आत्माश्रयः दोषः भवति खलु इति कृत्वा ग्रन्थकारः पुनः वदति तर्क्यन्ते इत्युक्ते प्रतिपाद्यन्ते इति अर्थः। प्रतिपादनं किमर्थं क्रियते इत्युक्ते अन्येषां ज्ञानं भवतु इति कृत्वा एव प्रतिपादनं, विशदरूपेण व्याख्यानं, विषयस्य विशदं प्रतिपादनं व्याख्यानं किमर्थं क्रियते इत्युक्ते अन्येषां तत्र विशदं ज्ञानं सरलरूपेण जायेत इति कृत्वा तत्र प्रतिपादनं भवति। तर्हि तस्य को वा अर्थः इत्युक्ते प्रमितिविषयी क्रियन्ते इति अर्थः। प्रमितिविषयी अस्मिन् ग्रन्थे के क्रियन्ते इत्युक्ते पदार्थाः। तर्हि तर्काः इत्युक्ते पदार्थाः, द्रव्यादिसप्तपदार्थास्तेषां सङ्ग्रहः नाम अस्मिन् ग्रन्थे द्रव्यादिसप्तपदार्थाः एव प्रतिपाद्यविषयाः, ते एव पदार्थाः अत्र प्रतिपाद्यन्ते इति कृत्वा ते एव पदार्थाः तर्काः इति उक्तं। तर्हि तर्काणां सङ्ग्रहः, तेषां सङ्ग्रहः, सङ्ग्रहः नाम संक्षेपेण स्वरूपकथनम् एव सङ्ग्रहः। तर्हि तर्कसङ्ग्रहः इति उक्तं। तर्हि तर्कसङ्ग्रहः किमर्थं तादृशः तत्र तादृशं नाम ग्रन्थस्य? पदार्थसङ्ग्रहः किमर्थं न उक्तम् इत्युक्ते तत्र शरीरकृतं लाघवम् इति वर्तते। नाम तत्र पदार्थ इति पदस्य अपेक्षया तर्कपदस्य तत्र वर्णन्यूनता अस्ति। तर्कपदे यावन्तः वर्णाः नाम तत्र पदार्थपदे यावन्तः वर्णाः सन्ति तेषाम् अपेक्षया तदपेक्षया तर्कपदे न्यूनाः वर्णाः सन्ति इति कृत्वा तत्र शरीरकृतं लाघवं वर्तते इति कृत्वा ग्रन्थकारः तर्कसङ्ग्रहः इति नाम एव स्वीकरोति ग्रन्थस्य इति अस्माभिः एतावत्पर्यन्तं दृष्टम्। अस्तु, इदानीम् अत्र समाप्यते, पुनः वर्गे मिलामः। धन्यवादः, नमस्कारः।